इदानीं वार्ताः। केन्द्र प्रशासनेन एकं राष्ट्रं एकं निर्वाचनमिति विषयम् अभिलक्ष्य निर्मितायाः उच्चस्तरीयायाः समित्याः अनुशंसा कृता। ह्यः नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः उक्तवान् यत् प्राक्तन राष्ट्रपतेः रामनाथ कोविन्दस्य आध्यक्ष्ये निर्मितया उच्चस्तरीयया समित्या विभिन्नानां दलानां प्रतिनिधयः हितधारकाः विषयविज्ञाश्च परामृष्टाः। अनया अनुशंसितमस्ति यत् लोकसभा विधानसभयोः निर्वाचनम् एकेन सहैव भविष्यति। पंचायत नगर निगमानाञ्च निर्वाचनानि सामान्य निर्वाचनानां शतदिवसेषु एव भवेयुरिति। मन्त्रिणा अग्रे प्रोक्तं यत् प्रशासनेन देशस्य विज्ञान प्रौद्योगिक क्षेत्रयोः संवर्धनाय चन्द्रयानस्य चतुर्थाभियानाय वीनस ऑर्बिटर इत्यस्मै अभियानाय अपि स्वीकृति प्रदत्ता। चतुर्दिवसीय वर्ल्ड फूड इंडिया इति विश्व खाद्य भारतमिति उत्सव अद्यारभ्य नवदिल्ल्यां आरप्स्यते। खाद्य प्रसंस्करणोद्योग मन्त्रालयेन ख्यापितं यत् एतस्मिन् चतुर्दिवसीय कार्यक्रमे 90 देशाः 26 च राज्यानि केन्द्रशासित प्रदेशाः 18 केन्द्रीय मन्त्रालयाः च भागं ग्रहीष्यन्ति। जापानदेशः सहभागी देशो भविष्यति तथा च वियतनाम ईरान देशौ प्रमुखौ भविष्यतः। कार्यक्रमावधौ खाद्य प्रसंस्करण क्षेत्रे नवाचारस्य प्रौद्योगिक्याः स्थिरतायाश्च प्रमुखाभिसरणं भविष्यति। जम्मू कश्मीर विधानसभा निर्वाचनस्य प्रथमचरणीयं 7 जनपदानां 24 आसनेभ्यः मतदानं ह्यः शान्तिपूर्णरीत्या सम्पन्नम्। विगतेषु 35 वर्षेषु बृहत्तमस्तरे मतदातारः मतदानानि कृतवन्तः। प्रथमे चरणे एतस्मिन् 61% यावत् मतदानं समनुष्ठितम्। पुलवामा, शोपियां, कुलगाम, किश्तवाड़, अनन्तनाग, रामबन, डोडा जनपदेषु मतदानं सम्यक् रीत्या प्रतिपादितम्। अत्रावसरे निर्वाचनायोगेन सूचितं यत् मतदातृकेन्द्रेषु यूनां महिला मतदातृणां संख्या अधिकम् आसीत्, या हि जम्मूकश्मीरे लोकतन्त्रस्य वर्धमानस्य प्रभावस्य प्रमाणमपि अस्ति। प्रधानमन्त्री नरेन्द्रमोदी श्वः महाराष्ट्रस्य वर्धास्थलस्य यात्रां करिष्यति। तत्रासौ राष्ट्रिय प्रधानमन्त्री विश्वकर्मा इत्यस्मिन् कार्यक्रमे भागं भजिष्यति। कार्यक्रमावधौ प्रधानमन्त्री विश्वकर्मा लाभार्थिभ्यः प्रमाणपत्राणि ऋणं च प्रदास्यति। तदनु श्रीमोदी महाराष्ट्रस्यैव अमरावती जनपदे पीएम मेगा इंटीग्रेटेड टेक्सटाइल्स रीजन्स एण्ड अपैरल इत्याख्यस्य उद्यानस्य आधारशिलाम् अपि संस्थापयिष्यति। विक्रम साराभाई अंतरिक्ष केन्द्रस्य निदेशकः डॉ एस उन्नीकृष्णन नायरः सूचितवान् यत् भारतीयान्तरिक्षानुसंधान संघटनम् इति गगनयान कार्यक्रमस्यान्तर्गतं मानवरहिताभियानाय सज्जितम् अस्ति। ह्यः बेंगलुरुनगरे 8 बेंगलुरु स्पेस एक्सपो इत्याख्यस्य कार्यक्रमावसरे वार्ताहरान् सम्बोधयन् डॉ नायरः अवदत् यत् अस्मै मानवरहिताभियानाय ऑर्बिटल इति प्रारूपं निर्मीयते, शीघ्रमेव च श्रीहरिकोटां प्रति प्रेषयिष्यते। अभियानमिदं वर्षान्ते निर्धारितम् अस्ति। वित्तमन्त्री निर्मला सीतारामन इत्येषा ह्यः नवदिल्ल्यां एनपीएस इति वात्सल्य योजनाम् उद्घाटितवती। अनया योजनया बालैः संग्रहितस्य धनस्य रक्षणं भवति, अपि च ते उच्चप्रतिफलमपि प्राप्स्यन्ति। अपि च क्रीडावार्तायां भारतीय क्रिकेट क्रीडादलम् अद्यारभ्य चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे आरभ्यमाणस्य द्वयोः क्रीडयोः श्रृंखला प्रथमे द्वन्द्वे बांग्लादेशेन सह सामुख्यं करिष्यति इति वार्ताः।